इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ता प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी ह्यः तृतीय ग्लोबल साउथ वर्चुअल समिट इति सम्मेलनस्य औद्घाटनिके वक्तव्ये वैश्विक दक्षिण देशानाम् आवाहनम् अकरोत् यत् ते सम्भूय कार्याचरणपूर्वकं परस्परं साहाय्यकीभूताः भवन्तु। प्रधानमन्त्रिणा वर्तमान वैश्विक वातावरणे अनिश्चिततानां समाह्वानानां समस्यानां च विषयेऽपि चिन्ता प्रकटीकृता। अमुना भणितं यत् विश्वम् अधुना यावत् कोविड दुष्प्रभावात् पूर्णतोदृशा नैव सुरक्षितं समुद्धृतं चास्ति, अथ चानेन साकमेव संघर्षस्य परिस्थितिश्चापि वैश्विक दक्षिण देशानां विकासयात्रायां महत्वपूर्ण समाह्वानम् उत्पादयति। श्रीमोदिना प्रोदीरितं यत् इमे देशाः जलवायु परिवर्तनं समेत्य स्वास्थ्यं भोजनम् ऊर्जापूर्ति सुरक्षा चेति समाह्वानानाम् अपि साम्मुख्यं कुर्वन्तो वर्तन्ते। प्रधानमन्त्रिणा आश्वासितं यत् भारतं निजानुभवैः सामर्थ्येन च वैश्विक दक्षिणस्य समेषाम् अपि देशानां साहाय्यतार्थं सर्वदा तत्परम् अस्ति। अमुना प्रोदीरितं यत् सद्यस्तनेष् वर्षेष् आधारिक संरचना अंकीय व्यवस्थापनम् ऊर्जा सम्पर्क समेधनं चेति मध्यमैः वैश्विक दक्षिण सहयोग समावलम्बन एधिति अस्ति। श्रीमोदिना प्रतिपादितं यत् मिशन लाइफ इत्यभियानास्यान्तर्गतं नवदिल्ली केवलं भारते एव नैव प्रत्युत मित्र देशानां गृहाणां छदिषु अपि सौरोर्जोत्पादनं नवीकरणीयोर्जा समुत्पादनञ्च प्राथम्येन समाचरति। भाषणस्य अवसाने श्रीमोदिना प्रत्यपादितं यत् अद्यतन चर्चाभिः सम्भूय युगपदेव अग्रे प्रवर्तनस्य मार्गः प्रशस्तीभूतः अस्ति। अमुना आशास्तं यत् एषः सामूहिको विमर्शः वैश्विक दक्षिण देशैः निर्धारित लक्ष्याणां प्राप्तये विहितान् प्रयासान् सफलयिष्यति। नेपाल देशस्य विदेशमन्त्री डॉ आरजू राणा देउबाः विदेशमन्त्री डॉ एस जयशंकरस्य आमन्त्रणे अद्य पञ्चदिवसीय आधिकारिक यात्रायां भारतं प्रति आगमिष्यन्ति। विदेश मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् एषा यात्रा भारत नेपालयोः नियमित उच्चस्तरीय आदान प्रदानस्य परम्परायाः अनुरूपं वर्तते। भारतीय चिकित्सा संघः प्रधानमन्त्रिणे नरेन्द्रमोदिने आरजी कर चिकित्सा महाविद्यालये घटितायाः घटनायाः विषये पत्रं लिखितवान् तथा च स्वास्थ्य सेवा कर्मचारिणः विरुध्य हिंसायाः अन्वेषण प्रक्रियायां केन्द्रीय विधिं निर्मातुं तस्य हस्तक्षेपं प्रार्थितवान्। सर्वेषां चिकित्सालयानां सुरक्षानियमाः विमानस्थानकस्य अनुसारं भवेयुः इति भारतीय चिकित्सा संघस्य आग्रहः अस्ति। रक्षामन्त्री राजनाथ सिंहः अद्य चेन्नई नगरस्य यात्रावधौ भारतीय तट रक्षकस्य नूतनस्य अत्याधुनिकस्य सामुद्रिक साहाय्य समन्वय केन्द्रस्य उद्घाटनं करिष्यति। सः चेन्नई नगरे समुद्र प्रदूषण प्रतिक्रिया केन्द्रस्य पुडुचेरी नगरे तटरक्षक वायु क्षेत्रस्य च उद्घाटनं करिष्यति। विदेशमन्त्री डॉ एस जयशंकरः अद्य कुवैतस्य आधिकारिक यात्रायां भविष्यति। यात्रावधौ डॉ जयशंकरः निज कुवैतस्य स्वीय समकक्षस्य अब्दुल्लाह अली अल याह्यान इत्यनेन सह मेलनं करिष्यति। सः कुवैतस्य नेतृत्वेन सह अपि मेलनं करिष्यति इति वार्ताः।